नमो वाचया च घृताया च अनुघृता तस्यै वाच नमो नमो वाच नमो वाचस्पतय नमो ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतेभ्यो मामृषय मन्त्रकृत मन्त्रपतयः परा दुर्माहमृषेन्मन्त्रकृतो मन्त्रपतेन् परादां वैश्वदेवीं वाचमुद्याचको शिवामधस्ताञ्जुष्टान् देवेभ्यः शर्म वेद्योः शर्म पृथिवी शर्म विश्वमिदं जगतो शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्म प्रजापते भूतम् वदिष्ये भुवनम् वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यम् वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणम् मे प्रजायै पशूणाम् भूयादुपस्तरणमहम् प्रजायै पशूणाम् भूया सम्प्राणापानो मृत्योर्मापानम् प्राणापानौ मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्याचकम् शुश्रूषेण्यो मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्तिः शान्तिः।